एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाले कोरोना विषाणुना गतदिने अतिरिक्ताः 9,535 जनाः संक्रान्ताः सन्ति। ह्य पीसीआर विधिना विहितेन परीक्षणेन 9,000 38 उत्तर 102 च एन्टीजेन विधिना विहितेन परीक्षणेन च 63 जनेषु संक्रमणं पुष्टिभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। मन्त्रालयस्य नियमित संचार संक्षेप कार्यक्रमे प्रवक्ता प्राध्यापकः डा जागेश्वर गौतमः ह्य आराष्टम प्रयोगशालासु 20,000 च निदर्शनानां पीसीआर विधिना 24,000 निदर्शनानां च एन्टीजेन विधिना परीक्षणं विहितमिति अबोधयत्। ह्य अतिरिक्ताः 68,100 जना कोरोना संक्रमणात् मृताः। एतदनु नेपाले ह्यस्तनावधि कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 1,452 च प्राप्ता वर्तते। ह्य अतिरिक्ताः 1,442 उत्तर 400 जना कोरोना संक्रमणात् मुक्ता सन्ति। संक्रमणस्य मुक्तेः अंकमानः प्रतिशतं 0.974 रस्तीति मन्त्रालयस्य प्रवक्ता डा गौतमः असूचयत्। एवमेव ह्य आराष्ट्रं समग्रतः 1,134,600 कोरोना विषाणोः सक्रिय संक्रान्त जनाः सन्ति। अत्रान्तरे स्वास्थ्य जनसंख्या मन्त्रालयेन 70+ संख्यायुतेषु सम्पूर्ण चिकित्सालयेषु स्वस्यैव प्राणवायुत्पादनशालां संस्थापयितुं निर्णीतं वर्तते। मन्त्रालयेन 100+ सर्वेषु नैजेषु सामुदायिकेषु च चिकित्सालयेषु आगामिनां 15 दिनानाम् अभ्यन्तरे स्वस्यैव प्राणवायुत्पादनशालां निर्मातुं निर्णीतमिति मन्त्रालयस्य प्रवक्ता डा गौतमः अवदत्। एवमेव मन्त्रालयेन बंगलादेशात् प्राप्तानि 10,000 रेमडेसिविर औषध शीशकानि सम्बद्ध चिकित्सालयानां परामर्शेन विपन्न वर्गस्य रुग्णैः प्राप्तित्वेन प्रदातुमपि निर्णीतं वर्तते। एवमेव आयन हेल्थ केयर संस्थया आयातितं 20,000 शीशकानां परिमाणस्य रेमडेसिविर औषधं सम्बद्ध चिकित्सकस्य परामर्शेन प्रत्यौषध शीर्षकं 9,174 कोरोना संक्रान्त जनाय प्रदातुम् अस्य कार्यस्य व्यवस्थापनम् औषध व्यवस्था विभागेन विधातुं च निर्णीतमिति प्रवक्ता डा गौतमः ज्ञापितवान्। प्रवक्ता डा गौतमेन कोरोना विषाणोः नियन्त्रण निरधनु उपचाराणां कृते प्राप्तां वैदेशिक सहायतां केवलं मन्त्रालयस्य समन्वय महाशाखायाः माध्यमादेव ग्रहीतुं निर्णीतमिति संसूचितम्। मन्त्रालयेन कोरोना विषाणोः नियन्त्रण निरोधनयोः कृते क्रियान्वितायां निषेधाज्ञायाम् अन्येषु आदेशेषु निर्देशनेषु च अपालितेषु सत्सु कोरोना संक्रमणस्य नियन्त्रणं न सम्भविष्यतीति हेतोः एतेषां सर्वेषां पूर्णरूपेण क्रियान्वयनं कारयितुं स्थानीय प्रशासनं पालिकाश्च अनुरुद्धाः सन्ति। स्वास्थ्य परिचारिका दिवसस्य अवसरे राष्ट्रपति विद्यादेवी भण्डारी कोविड 19 विरोधिनी युद्धे अग्रपंक्तौ स्थित्वा संक्रान्तानां जनानां उपचारे संलग्नाः स्वास्थ्य परिचारिकाः प्रशंसते। राष्ट्रपतिना भण्डारिणा ह्य ट्वीटर सञ्जाले संक्रान्तानां जनानां उपचारे अहोरात्रं संलग्नानां सम्पूर्णानां स्वास्थ्य परिचारिकानां त्यागं समर्पणं च उच्चैः प्रशंस्य अन्तर्राष्ट्रिय स्वास्थ्य परिचारिका दिवसस्य 1+200 फ्लोरेन्स नाइटिंगेल जयन्त्याश्च अवसरे शुभकामना व्यक्तास्ति। अवसरेऽस्मिन् स्वास्थ्य जनसंख्या मन्त्रिणा हृदय त्रिपाठिना च कोरोना विरोधिनी युद्धे अहोरात्रम् उपेक्ष्य सेवायां संलग्नाः सम्पूर्णाः स्वास्थ्य परिचारिकाः प्रति कृतज्ञता व्यक्तास्ति। कोरोना संक्रमणस्य तीव्रं प्रसरणमनु कास्की जनपदे सप्ताहाय निषेधाज्ञा वर्धापिता वर्तते। कोरोना संक्रमणस्य निरोधन नियन्त्रणयोः कार्यं प्रभावकारितया संचालयितुं सप्ताहाय निषेधाज्ञा वर्धापितेति कास्की प्रमुख जनपदाधिकारिणा थानेश्वर गौतमेन प्रकाशितायां सूचनायां ज्ञापितमस्ति। त्रिभुवनान्तर राष्ट्रिय विमानस्थलात् विधीयमाने अन्तर्राष्ट्रियो डयने क्रियान्वितं प्रतिबन्धनम् आगामिनो ज्येष्ठ मासस्य 17 दिवसं यावत् वर्धापितमस्ति। नेपाल नागरिको डयन प्राधिकरणेन अत्यावश्यक सूचनां प्रकाश्य अन्तर्राष्ट्रिय विमानोड्डयने क्रियान्वितं प्रतिबन्धनम् अतिरिक्तं सप्ताहद्वयाय वर्धापितमिति अन्तर्राष्ट्रियोड्डयनस्य सर्वाः वायुसेवा संस्थाः ज्ञापिताः सन्ति। अपरत्र नेपाल भारतयोर्मध्ये सम्पादिताया एयर बबल नाम्न्यः उड्डयन सम्बद्ध संविधायः अनुरूपम् देशद्वयस्य उड्डयनम् निरन्तरम् संचालितम् वर्तते। गण्डकी प्रदेशस्य मुख्यमन्त्रीपदे पृथ्वी सुब्बा गुरूङ पुनः नियुक्तो वर्तते। अस्यैव वैशाखस्य षड्विंशे दिवसे गुरूङ इत्यनेन पदात् त्यागपत्रस्य प्रदानानन्तरम् प्रदेश प्रमुखेण सीता कुमारी पौडेलेन बहुमतस्य सर्वकारस्य संघटनाय दिनत्रयस्य समय प्रदत्त आसीत्। निर्धारिते दिनत्रयेऽपि बहुमतस्य सर्वकारस्य संघटनस्य असामर्थ्यात् प्रदेशसभाया विपुलस्य नेकपा एमाले दलस्य संसदीय दलस्य नेता गुरूङ मुख्यमन्त्रीपदे पुनः नियुक्तोऽस्ति। बहुमतस्य सर्वकारं संघटयितुं नेपाली कांग्रेस संसदीय दलस्य नेत्रा कृष्णचन्द्र नेपालिना प्रयासे विहिते सत्यपि जनमोर्चा दलस्य सांसद्वयस्य तटस्थतायाः कारणेन सर्वकारः न संघटितः। सांवैधानिक व्यवस्थायाः अनुसारेण मुख्यमन्त्रिणा गुरूङ इत्यनेन प्रदेशसभा तु मासाभ्यन्तरे विश्वासस्य मतं ग्रहणीयं भविष्यति। मुख्यमन्त्रिणां गुरूङ इत्यमुं ह्य एव प्रदेश प्रमुखा सीता कुमारी पौडेलः पदगोपनीयतयोः शपथं ग्राहितवती। प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन स्वास्थ्य सामग्रीणां स्वास्थ्योपकरणानाञ्च आयाताय वायुयानस्य प्रबन्धनं कर्तुं सर्वकारः अभियाचितोऽस्ति। नेपाली कांग्रेस दलस्य प्रमुख सचेतकेन बालकृष्ण खाँड इत्यनेन ह्य वक्तव्यं प्रकाश्य नेपाली क्रयण संस्थानेन कृताः स्वास्थ्य सामग्र्यः उपकरणानि च वायुयानानाम् अभावेन चीनदेशस्य विभिन्नेषु विमानस्थलेषु अन्तरितावस्थायां विद्यमानः सन्तीति ज्ञापयता आयाताय वायुयानानां प्रबन्धनं कर्तुं सर्वकारः अभियाचितोऽस्ति। कोविड 19 महामार्या प्रतिदिनं संक्रान्तानां जनानां मृत्योः संख्या वर्धमानास्तीति यतोः स्वास्थ्य सामग्रीणाम् अभावं निरस्य कोविड 19 संक्रान्तानां अन्येषां रोगिणाञ्च उपचारः विधातव्यः इति विज्ञप्तौ उल्लिखितमस्ति। नेकपा एमाले दलस्य नेतुः बागमती प्रदेशसभाया सदस्यस्य च पशुपति चौलागा इत्यस्य पाशुपत क्षेत्रस्थिते आर्यघट्टे ह्य अन्त्येष्टिकर्म विहितमस्ति। नेतरी चौलागा इत्यस्मिन् अन्तिम श्रद्धाञ्जलिम् अर्पयितुं गृहमन्त्री रामबहादुर थापा, संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ, एमाले दल बागमती प्रदेश संगठनस्य अध्यक्ष आनन्द प्रसाद पोखरेलश्चेति नेतारः कार्यकर्तारश्च आर्यघट्टं प्राप्ताः आसन्। प्रधानमन्त्रिणा केपी शर्मा ओलिना नेकपा एमाले दलस्य केन्द्रीय सदस्यस्य बागमती प्रदेशसभा सदस्यस्य च पशुपति चौलागा इत्यस्य निधने दुःखं व्यक्तवता श्रद्धाञ्जलिः अर्पितो वर्तते। प्रधानमन्त्रिणा ओलिना भद्रशालिन मेलन स्वभावतः चौलागा इत्यस्य निधनेन दलेन एकः कुशलः निष्ठावान् च नेता हापितः, दोलखा जनपदीय जनतया दायित्ववायी प्रतिनिधिः हापितश्चेति उक्त्वा आत्मीय जनेभ्यः शुभेच्छुक जनेभ्यश्च गभीर समवेदना प्रकटिता वर्तते। नेपाली कांग्रेस संसदीय दलेन च पूर्व सांसदस्य तात्कालिक संविधान सभाया सदस्यस्य बागमती प्रदेश सभाया सदस्यस्य नेकपा एमाले दलस्य नेतुश्च पशुपति चौलागा इत्यस्य निधनं प्रति एवं नेपाली कांग्रेस दलस्य ज्येष्ठ राजनीतिज्ञ सभा सदस्यस्य पृथ्वी बहादुर कार्किणस्थ निधनं प्रति च दुःखं व्यक्तं वर्तते। इति समाचारः।